गणेशाय नमः, सरस्वत्यै नमः, श्रीगुरुभ्यो नमः, हरि ओम्। भद्रं कर्णे विश्वनुयाम देवा, भद्रं पश्ये माश भिर्यजत्रा, अनुस्वार परतरः अर्धेन्तु स्थितम् तारेण रुद्रम् एतत् तव मनुस्वरूपम् गकार पूर्वरूपम् अकारो मध्यमरूपम् अनुस्वारस्यान्त्यरूपम् बिन्दुरुत्तररूपम् नादसन्धानम् सगुंहिता सन्धिः सैषा गणेश विद्या गणकर्षिः निच्छिद्गायत्री छन्दः गणपतिर्देवता ॐ गं गणपतये नमः एकदन्ताय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्ति प्रचोदयात् एकदन्तं चतुर्हस्तं पाशमं कुशधारिणम् रथम् च वरदम् हस्तैर्विभ्राणम् मूषकध्वजम् रक्तम् लम्बोदरम् शूर्पकर्णकम् रक्तवाससम् रक्तगन्धानुलिप्ताङ्गम् रक्तपुष्पैः सुपूजितम् भक्तानुकम्पिनम् देवम् जगत्कारणमच्युतम् आविर्भूतम् चतुश्चाद्यौ प्रकृते पुरुषात् परम् एवम् ध्यायति यो नित्यम् स योगी योगिनाम् परः नमो रातपतये नमो गणपतये नमः प्रमदपतये नमस्ते अस्तु लम्बोदर एकदन्ताय विघ्ननाशिने शिवसुताय वरदमूर्तये नमः ॐ शान्ति शान्ति शान्तिः न कर्मणा न प्रजया तत्रापि दहनम् गगनम् विशोकस्तस्मिन् यदन्तस्तदुपासितव्यम् यो वेदादौ स्वर प्रोक्तो वेदान्ते च प्रतिष्ठितः तस्य प्रकृतिलीनस्य यः परस्य महेश्वरः you know